श्री गणेशाय नमः। ओम सर्वे वै देवा देवी मुपतस्थुः काशी त्वं महादेवीति साब्रवीत अहम् ब्रह्म स्वरूपिणी मत्तः प्रकृति पुरुषात्मकं जगत् शून्यं च शून्यं च अहमानन्दानानन्दौ अहम् विज्ञाना विज्ञाने अहम् ब्रह्मा ब्रह्मणि वेदित्वे अहम् पंचभूतान्य पंचभूतानि अहम् अखिलं जगत् वेदोहम् वेदोहम् विद्याहम् विद्याहम् अजाहम् नजाहम् अधश्चोर्ध्वचतिर्यक्चाहम् अहम् रुद्रेभिर्वसुभिः शरामि अहमादित्यैरुत विश्वदेवैः अहम् मित्रावरुणावुभौ बिभर्मि अहमिनन्द्राग्नि अहमश्विनावुभौ अहम् सोमम् त्वष्टारम् पूषणम् भगम् दधामि अहम् विष्णोमुरुक्रमम् ब्रह्माणमुत्प्रजापतिम् दधामि अहम् दधामि द्रविणम् हविष्मते सुप्राव्ये यजमानाय सुन्वते अहम् राष्ट्री सङ्गमनि वसूनाम् चिकितुषी प्रथमा यज्ञियानाम् अहम् सुवेपितर्मस्य मूर्धन्मम् यो निरपस्वन्तः समुद्रे य एवम् वेद सदैवी सम्पदमाप्नोति ते देवा अब्रुवन् नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां दुर्गां देवीं शरणं प्रपद्यामहे सुरानां शैत्रयैते नमः देवीं वाचं जनयन्त देवास्तां विश्वरूपाः पशव वन्दति सानो मन्द्रेशमूर्जं दुहाना धेनुवार्गस्मानुपसुष्टुतैतु कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरं सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवां महालक्ष्मै च विद्महे सर्वशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् अदितिर्ह्याजनिष्टदक्षया दुहिता तव तां देवा अन्वजायन्त भद्रा अमृतबन्धवः कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वा भ्रमिन्द्रः पुनर्गृहा सकला मायया च पुरुष्यैषा विश्वमातादिविद्योम् एषात्मशक्तिः एषा विश्वमोहिनी पाशाङ्गकुशधनुर्बाणधरा एषा श्रीमहाविद्या य एवं वेद सशोकं तरति नमस्ते अस्तु भगवती मातरस्मान् पाहि सर्वतः सैषाष्टो वसवः सैषेकादश रुद्राः सैषा द्वादशादित्याः सैषा विश्वे देवाः सोमपा असोमपाश्च सैषा यातु धाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः सैषा सत्वरजस्तमांसि सैषा ब्रह्मा विष्णुरुद्ररूपिणी सैषा प्रजापतिन्द्रमनवः सैषा ग्रहणछत्रज्योतिषी कला काष्ठादिकालरूपिणी तामहं प्रणौमि नित्यं पापापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीं अनंतां विजयां शुद्धांश रण्यां शिवदां शिवां वियदिकार संयुक्तं वितिहोत्र समन्वितं अर्धेन्दुलसितं देव्या बीजं सर्वार्थ साधकं एवमेकाक्षरं ब्रह्म यतयः शुद्ध चेतसः ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः वाङ्मया ब्रह्म सुस्तस्मात् षष्ठं वक्त्रसमन्वितं सूर्यो वाम श्रोत्रबिन्दु संयुक्तष्टा तृतीयक नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः विच्चेन वार्णकूर्णः स्यान् महदानन्ददायकः ह्यत्पुण्डरीकमध्यस्थान् प्रातः सूर्यसमप्रभाम् पाशाङ्गकुशधरां सौम्यां वरदाभयहस्तकां त्रिनेत्रां रक्तवसनां भक्तकामं दुघां भजे नमामि त्वां महादेवी महाभयविनाशिनीं महादुर्गप्रशमनीं महाकारुण्यरूपिणीं यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या यस्या जननं नोपलभ्यते तस्मादुच्यते अजा एकैव सर्वत्र वर्तते तस्मादुच्यते एका एकैव विश्वरूपिणी तस्मादुच्यते नैका अत एवोच्यते अज्ञेया नन्तालक्ष्या जैका नैकेति मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता तां दुर्गां दुर्गमां देवी दुराचारविधातिनीं नमामि भवभीतोऽहं संसाराणवतारिणीं इदम् अथर्वशीर्षं योधिते स पञ्चाथर्वशीर्ष जपफलं माप्नुति इदम् अथर्वशीर्षमज्ञात्वा योचान् स्थापयति शतलक्षं प्रजप्त्वापि सोर्चा सिद्धिं न विन्दति शतमष्टोत्तरं चास्य पुरश्चर्या विधिः स्मृतः दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते महादुर्गाणि तरति महादेव्याः प्रसादतः सायमधियानुदिवसकृतं पापं नाशयति प्रातर्धियानुरात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानो आपापो भवति निशीथे तुर्यसन्ध्यायां जपत्वा वाक्सिद्धिर्भवति नूतनायां प्रतिमायां जपत्वा देवता सान्निध्यं भवति प्राणप्रतिष्ठायां जपत्वा प्राणानां प्रतिष्ठा भवति भौमाश्विन्यां महादेवी सन्निधौ जपत्वा महामृत्युं तरति स महामृत्युं तरति य एवं वेद इत्युपनिषत् इति श्रीदेव्य अथर्वशीर्षं सम्पूर्णम्।